ओम नमो भगवते वासुदेवाय। अथ सप्तदशोऽध्यायः। मैत्रेय उवाच, निशम्यात्मभुवागीतं कारणं शङ्कयोज्झिताः, ततः सर्वे न्यवर्तन्त त्रितिवायदिवौकसः। दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी, पूर्णे वर्षसुते साध्वी पुत्रौ प्रसुसुवे यमौ। उत्पाता बहवस्तत्र निपेतुर्जायमानयोः, दिवि भुव्यन्तरिक्षे च लोकस्योरुभयावहाः। सहाचला भुवश्चेलुर्दिशा सर्वा प्रजज्ज्वलुः, शोल्काश्चाशनयः पेतुः केतवश्चार्तिहेतवः। ववौ वायुः सुदुस्पर्शः भूत्कारानीरयन्मुहुः, उन्मूलयन्नगपतीन् वात्यानीको रजोध्वजः। उद्दसत्तडिदम्भोद घटया नष्टभागणे, व्योम्नि प्रविष्टतमसा नस्मव्या दृश्यते पदम्। चुक्रोशविमनावार्धिर्दूर्मिः क्षुभितोदरः, सोदपानाश्च सरितश्चुक्षुपुः शुष्कपङ्कजाः। मुहुः परिधयो भूवन् सराव्वो शशिसूर्ययोः, निर्घातारसनिर्राधा विवरेभ्यः प्रजग्गिरे। अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम्, शृगालोलूकटङ्कारैः प्रणेदुरशिवम् शिवाः। सङ्गीतवद्रोदनवन्नुन्नमय्यः शिरोधराम्, व्यमुञ्चन् विविधा वाचो ग्रामसिंहाश्च तस्ततः। खराश्च कर्कशैक्षत्तः खुरैर्घ्नन्तो धरातलम्। खार्काररपसा मत्ताः पर्यधावन्वरूथसः, रुदन्तो रासभत्रस्ता नीडादुतपतन्खगाः। घोषैरण्ये च पशवः शकृन्मूत्रमकुर्वत, गावोत्र सन्नसृग्दोहास्तोयताः पूयवर्षिणः। व्यरुदन् देवलिङ्गानि द्रुमः पेतुर्विना निलम्, ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिताः। अतिचेरुर्वक्रगत्या युधुश्च परस्परम्, दृष्ट्वान्यांश्च महोत्पाता न तत्तत्त्वविदः प्रजाः। ब्रह्मपुत्रा नृते भीता मेनिरे विश्वसंप्लवम्, तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ। ववृधाते श्मसारेण कायेनाद्रिपती इव, दिवि स्पृशौ हेमकिरीटकोटिभिर्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ। गां कम्पयन्तौ चरणैः पदे पदे कर्त्या सुकाञ्च्यार्कमतीत्यतस्थतुः। प्रजापतिर्नाम तयोरकार्षीत् यः प्राक् स्वदेहाद्यमयोरजायत, तं वै हिरण्यकशिपुं विदुः प्रजायं तं हिरण्याक्षमसूतसाग्रतः। चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च, वशेषपालान् लोकान् स्त्रीनकुतो मृत्युरुद्धतः। हिरण्याक्षोऽनुजस्तस्य प्रियः प्रीतिकृदन्वहम्, गदापाणिर्दिवम् यातो युयुत्सुर्मृगयन् रणम्। तं वीक्ष्य दुःसहजवम् रणत्काञ्चन नूपुरम्, वैजयन्त्या स्रजा दुष्टमन्सन्यस्तमहागदम्। मनोवीर्यवरोत्सिक्तमसृण्यमकुतो भयम्, भीता निरुल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः। स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट्, सेन्द्रान् देवगणान् क्षीबान् अपश्यन् व्यनदद्भृशम्। ततो निवृत्तः क्रीडिष्यन् गम्भीरम् भीमनिस्वनम्, विजगाहे महासत्त्वो वार्धिम् मत्तैव द्विपः। तस्मिन् प्रविष्टे वरुणस्य सैनिका यादोगणा सन्नधियः ससाध्वसाः, अहन्यमाना अपि तस्य वर्चसा प्रदर्शिता दूरतरम् प्रदुद्रुवुः। स वर्षपूगानुदधौ महाबलश्चरन्महोर्मीञ्छसनेरितान्मुहुः। मौर्व्याभिजग्ने गदया विभावरी मासे दिवांस्तातपुरीम् प्रचेतसः, तत्रोपलभ्यासुरलोकपालकम् यादोगणानामृषभम् प्रचेतसम्। स्मयन् प्रलब्धुम् प्रणिपत्य नीचवज्जगादमे दह्यधिराजसंयुगम्। त्वम् लोकपालोऽधिपतिर्बृहच्छ्रवा वीर्यापहो दुर्मदवीरमानिनाम्, विजित्य लोकेऽखिल दैत्यदानवान् यद्राजसूयेन पुरा यजत् प्रभो। स एवमुत्सिक्तमदेन विद्विषा दृढम् प्रलब्धो भगवानपाम् पतिः, रोषम् समुत्थम् शमयन् स्वया धिया व्यवोच दङ्गोपशमम् गता वयम्। पश्यामि नान्यम् पुरुषात् पुरातनात् यः संयुगे त्वाम् रणमार्गकोविदम्, आराधयिष्यत्यसुरर्षभे हितम् मनस्विनोऽयम् गृणते भवादृशाः। तम् वीरमारादभिपद्य विस्मयः सहिष्यसे वीरशयेष्वभिर्वृतः, यस्त्वद्विधानामसताम् प्रशान्तये रूपाणि धत्ते सदनुग्रहेच्छया। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे हिरण्याक्षदिग्विजये सप्तदशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।